వక్రతుండమహాకాయ సూర్యకోటిసమప్రభ నిర్విఘ్నం కురు మే దేవ సర్వకార్యేషు సర్వదా. సరస్వతి నమస్తుభ్యం వరదే కామరూపిణి విద్యారంభం కరిష్యామి సిద్ధిర్భవతు మే సదా. గురురేవ గతిర్గురుమేవ భజే గురునైవ సహాస్మి నమో గురవే. నగురోః పరమం శిశురస్మి గురోర్మతిరస్తి గురౌ మమ పాహి గురో. అసాధ్య సాధకస్వామిన్ అసాధ్యం తవ కింవద రామదూత కృపాసిందో మత్కార్యం సాధయ ప్రభో. సర్వేభ్యో నమస్కార. అద్య శబ్దకల్పద్రుమే ధాతూన్ పశ్యామః. తన్నిమిత్తం ప్రథమం అహం భూ ఇది ధాతు స్వీకరోమి, ధాతుం స్వీకరోమి. ఇదానీం అస్తు, అత్ర కిమస్తి భూ ఇది ప్రథమం దత్తం, తదనంతరం సత్తాయాం ఇది దత్తం. అత్ర పూర్వస్మిన్ వర్గే వయం దృష్టవంతః ఇది కల్పద్రుమే కవికల్పద్రుమః ఇది ఏకః గ్రంథః అస్తి, ధాతుపాఠగ్రంథః పద్యగ్రంథః చ. తత్ర అస్తు ప్లీజ్ ఇది క్షణం. ఇదానీం సమ్యక్ ఖలు కృష్ణ. అస్తు, కవికల్పద్రుమః ఇది ఏకః గ్రంథః అస్తి. తత్ర వయం దృష్టవంతః ధాతవః సంతి, ధాతుపాఠ ఏవ పద్యక్రమేణ దత్తః. అస్తు, PVS Kumar not able to see a screen iti vadati. Hopefully others are able to see my screen. Okay. Apita bhu apita bhva para aka set iti asti. Bhvadi gane parasmai padi dhatuhu akarmaka dhatuhu set api ఇది ఉక్తం. తత్ర ఇత్యుక్తే పూర్వం మయా ఉక్తం సర్వం అత్ర కస్మిన్ గణే అస్తి పరస్మైపది వా ధాతూనాం పదవ్యవస్థ అపి చ అకర్మకః వా సకర్మకః వా సేడ్ వా అనిడ్ వా ఇది సర్వం కోశకారణ దీయతే ఇది పూర్వం ఉక్తవాన్ అహం. తథా అత్ర అత్రాపి దత్తం. అపి చ భూ సత్తాయాం ఇది తత్ర, సత్తాయాం ఇది సప్తమ్యాం అస్తి, సప్తమ్యాం దత్తః. తర్హి సప్తమీ విభక్త్యాం ఏవ సర్వదా ధాతు ధాత్వర్థః దీయతే, ధాతుపాఠే అపి తథా ఏవ. పూర్వం ఉక్తవాన్ శబ్దానాం ప్రథమా విభక్త్యంతం రూపం అత్ర అస్తి, అపి చ అర్థ అపి ప్రథమా ఏకవచనే ఏవ. పరంతు ధాతూనాం అర్థ సప్తమ్యాం భూ సత్తాయాం ఇది అస్తి. అత్ర సత్తా ఇహ ద్విధా సత్తా. సత్తా ఇత్యుక్తే ద్విధా అర్థ కల్పనీయ. ఇదానీం ఉత్పత్తి విద్యమానతా చ. ఉత్పత్తి ఇత్యుక్తే జాయమానః, ఇదానీం టు బి బాన్ ఇది అర్థ. విద్యమానత ఇత్యుక్తే టు ఎగ్జిస్ట్ ఇది అర్థ. భవతి మనుష్యః అథవా విష్ణుః, ఇదానీం మనుష్యః ఉత్పత్తి, మనుష్యేన మనుష్యస్య ఉత్పత్తి భవతి, పీపుల్ ఆర్ బాన్. విష్ణుః విద్యమానత, విష్ణుః ఎగ్జిస్ట్స్ ఖలు. తథా ఇది దుర్గాదాసః. దుర్గాదాసః కవికల్పద్రుమ గ్రంథస్య వ్యాఖ్యాం అథవా టీకాం లిఖితవాన్. धातु दीपिका इति तर्हि कविकल्पद्रुमे एवम् अस्ति अपि च दुर्गादासेन विरचितः विरचिता टीका तत्र एवम् अस्ति सत्ताह्य द्विधा उत्पत्तिः विद्यमानता च भवति मनुष्यः अथवा विष्णुः इति दुर्गादासेन दत्तम् अष्टमिति मन्ये अस्तु अनन्तरं भू इति क शुद्धिचिन्तयोः इति अस्ति इत्र क इत्यने इत्युक्ते किम् इति पूर्वं दृष्टवन्तः वयं तत्र चुरादिगणीयधातोः क इति अनुबन्धेन दीयते मिश्रणे शुद्धिचिन्तनयोः मिश्रणे इति कविकल्पद्रुमः कविकल्पद्रुमः एवं ददति तदनन्तरं चुरादिगणः परस्मैपदधातुः सकर्मकधातुः सेट् इति क तृणवद् भावयति द्विषः सर्वान् इति क इत्युक्ते किं क इति चुरादिगणधातु तर्हि चुरादिगणे रूपं किं कथं भवति तृण्वत् भावयति इति इदानीं कश्चन वाक्यम् अस्ति एतत् किमपि वाक्यं तृणवद् भावयति द्विषः सर्वान् इत्युक्ते द्विषः इत्युक्ते दुष्टः अथवा ये वन् हू हेट्स् पीपल् तृणवद् भावयति सर्वान् वन् हू हेट्स् पीपल् ही थिङ्क्स् एव्रिबडि हेस् अ ब्लेड् आफ् अ ग्रास् इति त्रयो अर्थः इत्युक्ते शुद्धिः चिन्तयोः शुद्धिचिन्ता अपि च मिश्रण इति त्रयो अर्थः इति दुर्गादासः वदति एवम् अत्र चुरादिगणे भावयति इति रूपम् इदानीं भू क न प्राप्तौ इति कविकल्पद्रुमः इदानीं क न इति वयं पूर्वं गतवर्गे दृष्टवन्तः चुरादिगण आत्मनेपदि धातु सकर्मक सेट् धातुः क न भावयते इति क इति चुरादिगणे धातुः न इति आत्मनेपदं स्वरितङ्गित अनुदात्तङ्गित आत्मनेपदम् इति अस्ति तदर्थं भावयते इति दुर्गादासः अस्तु in the original there's a question in the original dhatupata what is the sign or indicator for set or anit last class I discussed it is about he uses a swara the swara vyavastha to distinguish between whether it is a set or anit eka cha anudato upadeshe iti kashana sutram kimapi sutram asti evam astu अपि च भू ञ प्राप्तौ इति कविकल्पद्रुमः भू इति धातुः अनेकेषु स्थलेषु भवति अत्र एकत्र एव नास्ति परन्तु गणे अनेकेस्मिन् गणे भवति इदानीं ञ प्राप्तौ भूवादिगणे नूतनं इदानीम् उभयपदि धातुः अस्ति भूवादिगणः उभयपदि सकर्मकः सेट् इदानीं सत्ता इति धातुः अकर्मकः अस्ति परन्तु अत्र सकर्मकधातुः भू इति ञ भवति भवते ञ इति वयं जानीमः स्वरितञ्ञितकर्तृविप्राये क्रियाफले इति सूत्रेण उभयपदिनं सूचयति तदर्थं भवति भवते धनं धीरः इदानीं धीरः प्राप्तौ इति अर्थे धीरः धनं भवति इत्युक्ते धनं प्राप्नोति इति अर्थः अथवा धनं भवते इत्युक्ते धनं प्राप्नोति इति अर्थः भवति एव सत्तायां प्राप्तिसम्पन्नजन्मसु इति भट्टमल्लः अथ भट्टीकाव्यम् इति कश्चन ग्रन्थः अस्ति तन् अहं न पठितवान् परन्तु तत्र एवं दत्तम् भवति एव सत्तायां प्राप्तिसम्पन्नजन्मसु इति इत्युक्ते भवति एकमेव रूपं भू धातुः एव प्राप्तिः सम्पत्तिः जन्म इति सर्वं वदति इति परन्तु अत्र कविकल्पद्रुमे भू इति एकं नूतनं सत्तायाम् इति भिन्नं भू प्राप्तौ इति भिन्नम् इति उक्तवान् अत्र भवते दुरितक्षयं यथोक्त यथोक्तस्तु भिः भावयते च नाकलोकम् इति हलायुधः. हलायुधः किमपि वदति इति अत्र दत्तम्. अपि च केचित् अयं भुवाद्यि आत्मनेपदं मत्वा प्राप्तौ परस्मैपदं सत्तार्थस्य एव अनेकार्थत्वात् समाधत्ते इति दुर्गादासः. इदं धातुपाठः तु अनेके सन्ति धातुपाठः, परन्तु भिन्नभिन्न मतानुगुणं भिद्यते. तर्हि इत्युक्ते धातुपाठः सार् डिफरेण्ट् अण्ड् बेस्ड् आन् डिफरेण्ट् पीपल्स् कन्स्ट्रक्षन् इट् इस् दे हेव् डिफरेण्ट् ओपिनियन्स् अबौट् इट्. सो यू मे नाट् फैण्ड् अ सिङ्गल् अक्सेप्टेड् धातुपाठ, द यूनिवर्सलि अक्सेप्टेड् धातुपाठ. तदर्थम् अत्र सर्वं दीयते. केचिद् अयं भुवादि आत्मनेपदं मत्वा प्राप्तौ परस्मैपदं सत्तार्थस्य एव अनेकार्थत्वात् समाधत्ते इति दुर्गादासः. दुर्गादासः एवं टीकां लिखति. All these things, he looks at all the dhatupatas and says, okay, here it is like this, here it is like this, here it is like this. But the Panini Sutras are based on his own dhatupata. So you will not, basically if you want to refer to the sutras refer to his own dhatupata, so not any other dhatupata. Astu. Evam. Idanim, name I come to make sense. अस्तु, ष्ठा इति ष्ठा. एवं ष्ठा इति धातुः लौकिकधातुः स्था इति अस्ति, स्था धातुः, परन्तु धातुपाठे ष्ठा इति एव अस्ति. तदर्थम् अत्र अपि कवि शब्दकल्पद्रुमायां कल्पद्रुम कोशे अपि ष्ठा इत्येव अन्वेष्टव्या सः धातुः. Tarhi, if you search for stha, it won't be there. But in Apte and other things, we saw that we have to search as stha. Parantu atra stha iti eva anveshtavya. Stha ni sthane iti. Apicha, ekam sthane iti atra asti. Parantu dhatu paate gati nivrittyau iti asti. Gati nivrittyau iti. Evam... कविकल्प उपदेवः किं करोति, पद्यग्रन्थम् एकं रचयति खलु, तत्र पद्यार्थम् इन् आर्डर् टु फिट् द मीटर् ही गिव्स् अ डिफ्रेण्ट् वर्ड् फार् दिस् वर्ड्स् डिफ्रेण्ट् वर्ड्स् फार् द धातुस् द मीनिङ्ग् आफ् धातुस्. फार् एक्साम्पल् इन् द धातुपट यु विल् सी गतिनिवृत्तौ, परन्तु अत्र स्थाने इति उक्तम्. किमर्थं चेत् हि हेस् टु फिट् द मीटर् अण्ड् आल् दीस् थिङ्ग्स्. तर्हि तदर्थम् अत्र स्थाने इति दत्तं. परन्तु ष्ठा स्थाने इत्यस्य द मीनिङ्ग् आफ् स्था इस् स्थाने, इफ् समबडी सेस् इट्स् नाट् हेल्पिङ्ग् मच् रैट्. तर्हि परन्तु अत्र स्थाने इति बहु सरल शब्दः अस्ति, तदर्थं स्थाने इत्येव दत्तं तेन. अस्तु, ञि स्थाने, ञि इति ञकारः अपि च इकारः. अस्तु, भूरसातल क्विप् इट् सेस् नेक्स्ट्. अस्तु, इन् द भू धातुः देर् इस् अ क्वश्चन्, ऐ विल् जस्ट् गो बेक् टु दट्. ओके, सो हियर् भू अव्ययशब्द, सो दिस् इस् अ सुबन्धशब्द अण्ड् देन् भू प्लस् क्विप्. क्विप् इस् अ प्रत्यय, इट् इस् अ कृत् प्रत्यय, सो इट् इस् फ्रम् कृत् प्रत्यय यु गेट् अ सुबन्त फार्म् अण्ड् इट्स् अव्यय. रसातलं, रसातलम् इत्युक्ते किमपि, ऐ थिङ्क् इट् इस् एलिमेण्ट् एलिमेण्ट् आर् संथिङ्ग् सम् इन् द मोडर्न् वर्ल्ड् एलिमेण्ट् आर् सम् सब्स्टेन्स् इति अर्थः. अपि च भू, हियर् इट् इस् ओन्ली गिव् द अव्यय फार्म् भू, आल्सो भूः इट्स् आल्सो देर् सो ओके. So let's go back to stha. Atra nyakarah ikarah asti, ni stha sthane asti, sthito asti iti astu. That is bhuadigana parasmaipadi akarmaka anit dhatuh. Apicha ni sthito sthitah asmi, अत्र इकारः अस्ति अपि च ञकारः अस्ति अनुबन्धः. सो इकारः अकारः किमर्थम् अत्र एते अनुबन्धाः इति दत्तमस्ति. ओ अस्तु, सेवेन् वर्ड्स्, देर् इस् वन् कमेण्ट्, थेङ्क् यू वेरि मच. सो वन् आफ़् द वर्ड्स् इस् रसातलं. गुड्, सेवेन् वर्ड्स्. सो द भू भुव भुवः सुवः, ऐ थिङ्क् इट् मीन्स् दट्. धन्यवादः. ओके, स्थानं गतिनिवृत्तिः. सो हियर् हि गिव्स् द एक्स्प्लेनेशन् आफ़् वाट् द स्थाने इस्. स्थानं गतिनिवृत्तिः, तिष्ठति साधुर्धर्मे. सो हियर् हियर् हि गिव्स् अ यूसेज् आल्सो, तिष्ठति इति तस्य रूपं लट्लकारे. साधुः धर्मे तिष्ठति इति किमपि वाक्यमस्ति. अपि च पृष्टः, तिष्ठमानः इति वीरचरिते प्रकाशार्थे आत्मनेपतिविधानात् शाणः अस्त अत्र अस्तु. ओके, सो ऐ विल् हाव् टु गो अ लिटिल् बिट् इन् टु द अष्टाध्यायी फार् दिस्. सो ऐ हाव् दिस् प्रकाशे. सो लेट् मी सर्च् फार् दिस्. So there is a sutram here. Samapravish pravibhyah stah prakashanasthayakya akhyayoscha iti evam etena sutrena atmanepaditvam bhavati stha dhato. So let me, so this is a sutra pata, Pandian sutra pata. Atra prakashanasthayakya ध्येयाख्या आख्ययोश्च इत्यनेन आत्मनेपदित्वं स्थाधातोः, तदर्थम् अत्र लिखति. पृष्ठतः तिष्ठमानः इति वीरचरिते, वीरचरितः इति कश्चन ग्रन्थः. प्रकाशार्थे आत्मनेपदिविधानात् शाणः, अत्र तिष्ठमान इति शाणच् प्रत्ययः अस्ति. तदर्थं सः वदति अत्र अत्र यतोहि परस्मैपदी धातुः अस्ति, यद्यपि परस्मैपदी धातु तथापि अत्र वीरचरिते आत्मनेपदित्वम् अस्ति, तदर्थं प्रकाशार्थे इत्यर्थे भवति इति शाणच्. अथवा तच्छील्ये शतुः शाणः इति. तच्छील्यः इत्युक्ते वन् हूस् गेट्स् वेरि बेटर् अण्ड् बेटर् आन् अकस्टम् टु वन् वर्क् अगेन् अण्ड् अगेन्. सो there also you use shanach, chatuhu shanaha. There is also another sutram here, tachilya chatuhu shanaha iti panini sutram asti kimapi tasmin arthe. So in that, if it comes from the tachilya artha, the shatru becomes shanach iti durga dasa. So vyakaranam shaha bahavaha santi yatra, tadartham kinchit klesha bhavati, parantu ये अग्रे प्रगतस्तरे सन्ति तेषां लाभाय. सो ऐ होप् ऐ एम् गिविङ्ग् मोर् संस्कृतं हियर्. गतवर्गे एकः प्रश्नः आगतः, तदर्थं किञ्चित् अधिकं संस्कृतं वदामि. एवम् अवगत्य, इफ् यू हेव् क्वशन्स् प्लीस् आस्क्. ओके, वि विल् गो स्लो आन् दिस्. अस्तु, एवम् इदानीम् एवं भुवादिगणः. ओके, दर् इस् अ क्वश्चन् आल्सो, डिड् यु गेट् अ चान्स् टु चेक् इफ् किं कुड् बि अव्यय? या, किम् इस् किम् आल्सो इस् अन् अव्यय शब्द. यु केन् चेक् आप्टे डिक्शनरि. ऐ आक्चुलि कवर् दट् वेन् ऐ डिड् आप्टे. अस्तु, इदानीं या इति स्वीकुर्मः. या इति धातुः, तत्र ल गतौ इति अस्ति. या इत्यस्य अर्थः गतौ इति अर्थे अस्ति, ल इति अस्ति. ल इति अदादिगणं सूचयति. अदादिगणः परस्मैपदी सकर्मकधातुः अणिट् इति. ल याति, किमर्थं ल इति उक्तवान्? याति इति दुर्गादासः. एवम् एतत्तु बहु सरलः अस्ति, या इति धातुः. तदनन्तरं दा इति स्वीकुर्मः, दा. अत्र दा इति धातुः बहुत्र सन्ति, बहुत्र अस्ति. तर्हि दा एकं द्वे त्रीणि चत्वारि चतुर्षु स्थलेषु अस्ति. प्रथमं दा दाने इति, दा दाने इति कवि कल्पद्रुमः. भुवादिगणः परस्मैपदि सकर्मकः अनिट्. दा तु दाने, दान् दाने प्रसिद्धोऽयं. दान् दाने इति प्रसिद्धः धातुः अस्ति इति उक्तवान् सः. दान् दाने अस्त्येव यच्छादेशः. अत्र सूत्रमेकमस्ति पाघ्राध्मा इति सूत्रं. तत्र यच् धा इति स्थितौ यच्छ इति आदेशः भवति, यच्छति इति रूपं भवति. सो इन् इन् भुवादिगण धा धातुः लट्लकार परस्मैपदि. फार् एक्साम्पल् इफ् षित् प्रत्यय फालोस् एनी शकार फालोस् द फार्म् इस् यच्छ इस्त आदेशः, यच् इति आदेशः भवति. तर्हि यच्छति इति रूपम् इति दुर्गादासः. अपि च इदानीं वयं जानीमः डु ञ लि दाने इति. यच् इस् टु गिव्, यच् इस् टु नाट् टु अप्टेन्. देर् इस् अ क्वश्चन्, यच् इस् टु अप्टेन्, यच् इस् टु गिव्. सः भिक्षुकं धनं यच्छति. ऐ थिङ्क् यु आर् कन्फ्यूसिङ्ग् वित् याच् याचते इति. याचते इत्युक्ते टु टु सालिसिट् इति अर्थः. यच्छति इत्युक्ते ददाति इत्यर्थः, दानं करोति इत्यर्थः. अस्तु, दा इत्यस् दा डु ञ लि दाने. अत्र डु दुःस्कृङ्करणे इति अस्ति, तदर्थं डु इति अस्ति. ञकारः अपि अस्ति. लि दाने अत्र, क्षम्यतां, न तु डुःस्कृङ्करणे, क्षम्यतां, डुदाय् दाने इति, डुदाय् दाने. ओके, if you're not speaking, please mute yourself. Thank you. Dudai dane, du nyakara li iti juhatyadi ganasya anubandha dane iti. Kiti kalpadrama du dattrimam. Atra ekam purum muktavan. In last class I mentioned this. Let me share this. Are you able to see this? Okay, let me see. Yeah, so I made a table. Atra कवि कल्पद्रुमे अनुबन्धवर्णानां फलानि इति कोष्टकमेकम्. अत्र कल्पद्रुमकोषे पूर्व मुखबन्धनम् इति, फ्रंट मैटर इति अस्ति कश्चन. तद् सर्वम् अत्र दीयते. ऐ विल् पोस्ट् दिस् इन् द कोर्स् वेब्सैट्. सो this gives all the anubandha used in shabda kalpadruma. So based on this, he also reuses panini, so it's very useful to have a copy of this and look at it. So here the duhu it trimagyudaha. So trim, so there is a sutram, I think dutaha. I'll just द्वितः त्रिः इति सूत्रं. डु इतः त्रिः इति किमपि आदेशः भवति. कृत्रिमं आल् दीस् फार्म्स् कम्स् हियर् फ्रम्. सो दत्रिमं, कृत्रिमं, पक्तिमं, पक्त्रिमम् इति सर्वम् इत्युक्ते कृत्रिमम् इत्युक्ते आर्टिफिशियल्, दत्रिमम् इत्युक्ते अत्रैव वयं पश्यामः दत्रिमम् इत्युक्ते किम्. I think we have to look at Apte here. It is not there, I think. Okay, let me look at Apte. You can also look at apte and what is dattrimam means. Let's go back to the Dattrima. It says adopted son. Iti sarvam astu. So the trima adesha comes. Tarhi evam, it's all these things are here. I will post this in the thing in the website. Okay, there was another question. I missed it. Okay, let me check that. So is there a table which shows which letter represents which dhatu gana? So in the last class I mentioned, I covered that in detail, which letter represents which dhatu gana. Okay, let me quickly get that. Here it is, right? One second, I will just show that particular thing for you. Okay, here I just use this okay, thank you. An adopted son is a son because he is given. Okay, so that's dattrimam. Thank you. Okay, so I will just show this particular. So somebody asked me what anubandha letters is there for each dhatu gana. Evam asti atra bhuadi ganasya kimapi nasti, adadi ganasya lakaraha, jyoti adiganasya li, divadi ganasya yakaraha, swadi ganasya nakaraha, tudadi ganasya shakaraha, udadi ganasya dhakaraha, tanadi ganasya da. Evam astu atra gachama. दादातुः एवम् अस्ति. अपि च लकारः अदादिगणे दाति इति अपि अस्ति. दा इति दाति अदादिगणे अपि अस्ति. लूणिः छेदः इति अत्र लूनौ इति अर्थे, लूणिः इत्युक्ते छेदः इति अर्थः. केचित्तु दाप् लवणे इति पठित्वा पित्वात् दासंज्ञाभावे यग् आदौ दायते इत्यादि मन्यन्ते. इति सर्वम् अत्र व्याकरणांशः भवन्तः एव पठन्तु. स्वमते अत्र स्वमते इति दुर्गादासमते तु पित्वा अभावात् धासंज्ञायां दीयते इत्येव इति. अत्र यग् यगादौ यक् इति कर्मणि प्रयोग प्रत्ययः अस्ति. सार्वधातुके यक् इति कश्चन किमपि सूत्रमस्ति, तेन दीयते इति दा इति धातुः. अत्र गुमास्ता इति सूत्रेण ईकारादेशः भवति. अस्तु. अपि च एवम् इदानीं सर्वम् इदानीम् अजन्तदातवः दृष्टवन्तः. सो वी हव् सीन् आल् धातुस् एण्डिङ्ग् इन् ववल्स् भू ई आल् दीस् थिङ्ग्. सो लेट् मी टेक् सम् हलन्तदातु. So div is dhatu. So what you have to search is diva. You have to search. So one thing is in Kavikalpadruma, because he wants to uchcharanartham, he wants to put it in a meter. For the uchcharanartham, he adds an akara. For example, I'll show you here. So akara anubandeshu madhye akaraha sukhocharanartham. So basically he puts an akara at the end of the hal shabda to make it uchcharanartham, easy to do the uchcharana. Yeah, okay. Vamsita Bhagini is telling, please charge your computer. I hope it will run till, I don't have a charger in front of me. I hope this will, my class will go till the end. So let me see how long. So it says 30 minutes. So hopefully I will finish the class in 30 minutes. Okay. Sukhocharanarthaha yatha dakka nakka iti nashane iti. So basically there is a akara at the end. So when you have to search any dhatu with halantaha, so you have to search with the akara at the end. Diva iti. Now if you search diva, e praptau iti. Atra bhuadigane tatra it's a ఇదితోనం ధాతు. సో బేసికలీ ఇట్స్ ఈ ఇకార అనుబంధ లెటర్. సో ఈ దిన్ వ్యతే ఇది, దిస్ ధాతు ఇస్ వెరీ అన్కామన్. సో లెట్స్ గో టు ద ధాతు విచ్ ఇస్ వెరీ కామన్ విచ్ ఇస్ ఇన్ ద దివాదిగణ. సో దివాదిగణ ఫస్ట్ ధాతు ఇస్ దివ్ య ఉ, ఇట్స్ ఆల్సో ఉకార అనుబంధ. సో ఉదిత్వాత్ క్త్వా వేట్. సో ఇన్ ద క్త్వా క్త్వా ప్రత్యయ, సో దర్ ఇస్ ఇట్స్ అ వేట్. ఇట్ ఇస్ ఐదర్ you can use with idagama or without idagama. So that's why he gives u devitva jutva. Okay, and then the jigisha ichchaya. So jigisha ichchayoho iti it's a form it gives. And then panau jutau kridayam gatau iti kalpadrama. So there are quite a few quite a few meanings for this. So jutau kridam, so the divyate we use in the form of jutau is a very common meaning. And then divadigane parasmay padi akarmakah sakarmakah sakarmak akarmakah sakarmakah cha set uditvat ktva vet. So ya iti asti divadiganasya divyati. So the ikara gets dirgha because of some sutram, I think rorupadaya iti kimapi sutram asti. దివ్యమానం శితాన్ వణ వాణాన్ ఇది ఇది భట్టౌ తచ్చీల్యే శతుశ్యాన. సో దిస్ భట్టౌ ఐ థింక్ ఇట్స్ భట్టి కావ్య, బట్ అగైన్ తచ్చీల్యే ఇది అర్థే శతు శతు శాన. సో ద శత్రు ప్రత్యయ గెట్స్ శానచ్. సో పాణిని వ్యవహార స్తుతిశ్చ. సో ఇట్ గివ్స్ అ లాట్ ఆఫ్ గ్రామర్ బిహైండ్ దిస్. సో ఐ ఎమ్ నాట్ గోయింగ్ టు గో ఇన్ టు దిస్ డీటెయిల్స్. యతోహి ఏషః వ్యాకరణ వర్గా నాస్తి. అస్తు దివా ఇది. సో జన లుక్ అట్ జన. సో జన్ ఇస్ అనదర్ ధాతు. సో యు లుక్ అట్ జన. ఓకే, జన ఇస్ ఆల్సో దివాదిగణ ధాతు. సో ఈ ఈకార దీర్ఘ ఈకార సనిత్ అండ్ మకార సనిత్. సో basically makara it's mitam hraswaha iti ekam sutram asti. So that kicks in here. And then so one thing is we can immediately see, okay, the mit the makara it here, all these things in the sutra pata, we unless we know the sutra pata by heart we cannot know that. But here it is this particular thing is easily given here. Makara and the yakara is a divadigana. So nakara atmanepati ఇది ఆత్మనేపది ధాతు అకర్మక సేట్ దివాది. ఈ జాత అపిచ మకార జనయతి జన్ న్యా జనోర్జ. జా ఇది అస్తి న్యా జనోర్జ ఇది సూత్రేణ జాత ఇది భవతి. అస్తు తచ్చీల్య సూత్రం 3 to 129. థ్యాంక్ యూ. ఐ థింక్ 3 to 129. అస్తు తచ్చీల్య వయోవచన శక్తిషు చానష్. ఓకే గుడ్, థ్యాంక్ యూ. య న జాయతే జన్యతే. సో జాయతే ఇస్ ద కర్తరి ఫామ్, జన్యతే ఇస్ ద కర్మణి ఫామ్. జనిర్ జన్మ ప్రాదుర్భావే ఇది ప్రాంచ. Okay, so I'm not going to go into all the details. So he gives a lot of atra durga dasena tattam tu bahava vishayaha asti tatra nagacchama. Okay, I have another. Okay, smr, let me check smr. స్మృ స్మృతౌ స్మరతి ఇది ఏకం ధాతు. అపి చ ఐ వాంట్ టు డు దిస్ ఓన్లీ. స్మృ స్మృతౌ ఇది ద ఋకారాంత ధాతు ఏకం. స్మృతిర్ జ్ఞాన విశేష తథా చ ఇది కవికల్ప ఇది దుర్గాదాసం వదతి. इदानीं सम तार्किकाः सो इन द तर्कशास्त्र देयर इज समथिंग दैट द स्मृति इज वेदर इट इज संबित भगवती द्वेदा स्मृति अनुभव वेदिका सो वेदर इट इज मेमोरी और एक्सपीरियंस एंड ऑल दीस थिंग्स सो ही गिव्स क्वाइट अ फ्यू गुरुम शिष्य एंड देन आफ्टर दैट ही जस्ट गिव्स जस्ट गुरुम शिष्यम शास्त्रम स्मारयति सो वन हू makes him remember on all these things. So I have not gone into much, I have not read this much in detail. So if you want to go into this detail, please go ahead. I just, my goal is just to show how Dhatu entries are looked up. Now my favorite Dhatu, Vidha. We looked at Vidha in all the dictionaries, so we look at Vidha here also. So Vidha is a very famous dhatu, and it is also used in Laukika much and all of these forms. So prathamam Vidha lr vidil r iti asti vidil iti asti pa sha nyau labhe iti atra tudadi gana dhatu ubhayavadi sakarmakah anid lr avadit. So there is one sutram here, so we'll look at this. अड्वान् इति कश्चन सूत्रमस्ति, तदपि अङ्वान् अङ् अङ् इति आदेशः भवति, कदा लुङ् लकारे इति मन्ये अहम्. अविदत् इति तदर्थम् अङ् इति कश्चन प्रत्ययः अस्ति, छ्लि इति स्थितौ. अपि च प श ञ प इति मुचादि धातुः अस्ति, प इति मुचादि गणे अस्ति, तर्हि श इति तुदादिगणे, ञ इति उभयपदि, विन्दति विन्दते, औ वेत्ता, औ इति अनिड् अस्ति. इति दुर्गादास. सो देयर इस् वन् क्वश्चन् इन् द चाट्, हौ डु यु फैन् कृदन्त फार्म्स्? सो कृदन्त फार्म्स् यु सर्च् एस् Subanta, that's it. So basically I will come to, after this we will look at the one Kadanta form. Okay, then Vidha in the Churadigana, ka na nya iti atmanepadi ubhayapadischa sakarmakah, adanam vetana akhyana vasa vasavade iti, vetana akhyana vasava ade iti, chetana jnanam, chetana itte, sorry I told vetana, sorry, chetana jnanam vadaha sthairyam iti, वेदयते शास्त्रं धीरः. इति रूपम् अत्र ज्ञान अतितीर्यतः, ज्ञान अतितीर्यतः, जान अतितीर्यतः, जान वेदयते स्वार्थं लोकः आख्यातीर्थः, आख्याति इति अर्थः. ओ अस्तु अस्तु, क्षम्यतां, वेदयते शास्त्रं धीरः, जानाति इति अर्थः. हि गिव्स् अत्र जानाति, ज्ञानं वेदयते शास्त्रं, धीरः शास्त्रं वेदयते, अत्र जानाति इति अर्थः. वेदयते स्वार्थं लोकः आख्याति इति अर्थः. हियर् इन् दिस् सेण्टेन्स् इट् इस् आख्याति इति अर्थः. वेदयते तीर्थं साधुर्वसति इति अर्थः. सो तीर्थे साधुः वेदयते इत्युक्ते वसति इति अर्थः. वेदयते वृक्षः स्थिरः स्यात्, स्थिरः स्यात् इति अर्थः. वृक्षः वेदयते इत्युक्ते स्थिरः स्यात् इति अर्थः. एवम् अत्र सेम् वर्ब् हि इस् सेम् क्रियापदं, हि इस् यूस्ड् इन् डिफ्रेण्ट् मीनिङ्ग्स् अण्ड् हि गिव्स् द डिफ्रेण्ट् मीनिङ्ग्स् हियर्. वेदयति वेदयते, केचित्तु वादं न पठन्ति. अस्तु, सर्वम् अत्र विवरणानि सन्ति. अपि च विद नौ धौ मीमांसयति, अस्तु, अत्र रुधादिगणे अस्ति. विन्ते शास्त्रं धीरः इत्युक्ते मीमांसे इत्युक्ते हि विचारणं करोति, शास्त्रं विचारं करोति, शास्त्रस्य विचारणं करोति इति विन्ते, धीरः शास्त्रं विन्ते. अपि च औ अनिड् धातुः वेत्ता इति दुर्गादासः. अपि च विद यङ् यकारः अस्ति दिवादिगणे, नकारः आत्मनेपदि धातु, औ इति अनिट् धातुः, भावे भावः सत्ता च सत्ता सः च इह विद्यमानता एव. सो previously we saw bhu sattayam, sattayam dvida iti utpattih vidyamanata cha, parantu atra bhavaha satta saha sa sacha iha vidyamanata eva. There's only one meaning for this bhava here, not to utpatti. You can't say manushyah vidyate iti, vidyate vishnuhu eva vaktavyam. Au veta iti durgadasa apichalla iti adadi gane asti veti iti rupam vayam janimaha eva. Astu evam astu idanim, I have to, let me quickly get in 1 minute, I'll maybe quickly get my charger, it's actually really crying now. Okay, 1 second. Okay, sorry. Let's continue. And then, okay, so I have only these things. So let me quickly go into some very basic dhatus so that we get some more things. So for example, chura. So chura is a dhatu from the churadiganaha. So you have to search as chura. Atra ki iti steye iti asti. Steye iti te to steal iti artaha. ఇది చోరయతి చోరతి ధనం చోరః ఇది. సో కీ ఇస్ అ వాచురాది. సో బేసిక్లీ ఇట్ ఇస్ వి కెన్ టేక్ వెదర్ ద నిజాదేశ నిజ్ ప్రత్యయ కమ్స్ ఆర్ నాట్. సో ఇట్ ఇస్ దట్స్ వాట్ హీ ఈస్ గివింగ్ ఇన్ దిస్ పర్టిక్యులర్ థింగ్. చోరయతి చోరతే. Okay, so one thing I wanted to show was katha. I mentioned this in the last class. Katha. So katha is a takara, is an it takara anubandha. Takara anubandha tatra adantaha iti asti. Adantaha churadiganiya dhatuhu. Evam tatra takara ka vakya prabande iti. Vakya prabande katha iti jani mahavayam. To speak iti. Janim kathayati iti form. Atra Panini hi kim karoti. Atra on purpose he puts a akara at the end. And then there is a sutram ato lopaha. If an ardhadatuka pratyaya follows. Tarhi nij iti ardhadatukaha pratyaya. Tarhi in the churadigana it's always only a nij is the pratyaya which comes. So on purpose he puts a akara at the end and then removes it as soon as it comes into the machinery. So he removes it the akara and then achav parasmin purva vidhau iti sutram ekam asti. Tatra lopaha will get the sthanivad bhava of the akara and then he denies the other sutram which makes a vriddhi atavapadayaha iti sutram asti. Tasya nishedam karoti tena sutrena idanim akara sthapanena. So he puts an akara at the end and gets rid of it immediately before it gets into the machinery of all the things. And then he brings up this brilliant methodology to get this from kathayati. Astu tatra prashnaha eka asti va churadi churadi vedah kah kim tatra astu. So vachuradi itite tatra churadi gane atra vikalpah asti iti manyaham. Vachuradi itite it is we can get the nij form or just apply kartari shabd and get the other form. So chura Chorayati, chorati. So basically you just can apply kartari shap without the nich pratyaya and then get the form chorati. I think that is what the vachuradi means. So let's go back to kath. So kathayati iti form tarhi hanta he kathayishyami sita seti saham puratanam iti bhagavatam. Astu. अहं पूर्वं न पठितवान् एवम् अस्तु एतत् सर्वम् एवम् अस्ति इदानीम् इतोपि किम् अस्ति अत्र टु इति दिस् ऐ हैव् नाट् टेकन् एनी एक्साम्पल् फर् टु रैट् ओके. Anyway, it's the Satuhu, so Vepatuhu iti form, there's a form called Vepatuhu, so Vepa iti Dhatuhu, let me take that Dhatu. So iti Hasam, okay. So let me take this form Vepa. So this, there is a Anubandha 2 iti, Tatra. Chale iti artha, chala iti kampanam iti artha, tu vepatuhu. So there is this another sutram which brings this tu iti adesh, tu iti form. So I am not going to go into read those details. So why is the, so in last class there was a question why Panini puts this anumanda tu, do and all these things. So there are reasons why he puts it. So you have to go through the entire Vyakaran Shastram, at least the dhatu nirmanam, to get to know about this. I mean, if you are having a continuous study of Vyakaranam, then this will be all be useful. Astu. Then in Kridanta Rupam Ekam Pashyamaha. Then in Kim Panna Iti Pashyamaha. Pannam Pannaha. Atra Pannam Iti Asti. Atra Trishulingesho Iti Asti. Padyau. पद् धातुः न गतौ इत्यस्य गत्यर्थे कर्तरिक्तः इति अस्ति एवं. सो यू हैव टु लुक् एट् आल् द कृदन्त फार्म्स् जस्ट् बै एस् अ सुबन्त एस् ऐ सेड् इन् द सुबन्त यू हैव टु यूस् द प्रथमा एकवचन फार्म् च्युतं गलितम् इति अमरः एवं. हि गिव्स् अ व्युत्पत्ति आल्सो पद्यौ न गतौ. सो दिस् इस् दर् इस् दिस् पद् धातुः Gatyarthi, and then he gives us the sutram also, 3472, iti kartariktaha. Evam. Okay, so I have this much. If there are any questions, I can take, or we can, if you want to suggest some dhatus, I can search for you. And in the last class, there were some questions, and they told me they will send me email. I didn't get any email. Hopefully, you sent, hopefully it's not lost, and I didn't get to give you the wrong email ID. अस्तु इदानीं प्रश्नाः सन्ति चेत् पृच्छन्तु कृपया. ओ यु नाट् एबल् हियर् मी. सर्वैः श्रूयते किम्? अस्तु 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 इदानीम् अहं ऐ विल् सर्च् ऐ विल् गिव् ऐ विल् ओपन् अप् टु क्वश्चन्स्. अव्ययम्. Oh, Avyayam is a name. Okay, there is, I've unmuted Avyayam. Are you there? Astu, I will mute you again. Please unmute yourself if you have questions, please. C. Sharada. प्रश्नः नास्ति वा?
न न
अस्तु. जी वि आर्
नमस्ते जी. भवान् संस्कृतेन एव वर्गं चालयन्तु, सम्यक् अस्ति.
अस्तु 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 तर्हि तथा एव कुर्मः, करोमि. धन्यवादः. एवमेव वा, इतोपि किमपि अस्ति वा? अस्तु अहं म्यूट करोमि भवन्तं. डीआरओ विजयश्री क्षम्यताम् इति यदि नाम सम्यक् न वदामि चेत् क्षम्यताम्. विजयश्री, आर् यु देर्?
यस् यस् प्लीस्.
यु हेव् अ क्वश्चन्?
नो, ऐ डोण्ट् हेव्. ऐ डिडन्ट् आस्क्. दट्स् वाट् ऐ वास् वण्डरिङ्ग्, यु नो.
ओ सारी, ओके okay, I have put down all the hands. If there are any hands raised, please let me know. Otherwise I will continue with some more dhatus. We will continue with some dhatus. We have some time. I will also show you one thing. I wanted to show you this, but let me just unshare my screen and go back. Okay, wait a sec. I'm going to just oh, there is a hand raised. Let me check. Go back. Okay. Swaminathan. Okay. Yes, sir. You are unmuted.
Can you hear me?
Sure.
Now, again, I have a very specific question on a particular, I think it is a dhatu from Mahabharata. And it goes like this. Yushahera. Yushahera.
Can you type it out? I am not able to, I'm able to hear what you say, but just wanted to make it. Can you type it out in the chat?
I have to do it in English. I don't know.
It's okay. It's okay. Just, I know that last class you had a question and I was looking for an email.
I got the answer. I know. Okay. I sent it to you, but it went to the general mailbox. I got an answer.
Okay. Very good. Okay. That's very good. Okay.
Did you get it?
Vishaheran.
I think it has a Vishaheran, something like that.
So that is, I think, it is a run is the end, at the end, tarhi ante run iti asti kalu, tarhi tat vidiling lakare bhavati.
Right.
Tat sarvam nyatva.
Vishahe, I found it in the after, but I'm going to, meaning is, general meaning is this time.
Okay.
So, what is it, a Krutanta form or? What kind of, what is the, I'm trying to understand the details.
Astu.
And if it is too much off, we can take it offline.
Okay, we'll take it offline then. Okay. Thank you. Okay, there's a question here. Can we look at Vad? That's a good question. Vad. Vada. Iti anveshtavyam. Atra Vad iti dhatu. Atra bhavayor abhedaha asti. Tadartam kinchit. अत्र अस्ति वाचि इति, वद वाचि इति, उद्यात् इति एकमस्ति. दट्स् वाट् वि वाण्ट् हियर् रैट्. वदति वदते इस् वाट् यु वाण्ट् ऐ थिङ्क्. वाक् सन्देशयोः इति कल्पि कल्पद्रुमः. वदति वदते इति अस्ति. अयम् आत्मने padi iti anye. So this atmane padi iti anye iti, not everybody accepts it's atmane padi iti. Okay. That's some question. Now let me go back to this. So this vad dhatu, I don't know which vad dhatu you want to look up, but here's vandyate is there. There is a form vadayati also. Okay. Or vacha. So there was another question called, can we look at vacha? So vacha. So here that vach dhatu is an irregular form. We know that the vachi, this adhadigana dhatu, vakti iti form. So av vakta. Asmat anti vibhaktihi na prayojya. So there are some forms which are not there. So he gives a shloka, a verse for this. So vacher antyantu shantrubhi prayogah na abhidiyate jayater nasti panchamya uttamah purushah kvachit iti bahu sammatam iti. So there are this vach dhatuhu has only some certain forms. So is what he says. Okay, there is another question. So, 1 minute. Okay. Brudhatu. So Bruvavati, I think he doesn't give that Bruvavati which Adeshaha here somehow. Let's try Bru. So it gives Bru as another Dhatu itself, Braviti. Oh, okay. So he says Tani Nityatvan na Vachadeshaha. Okay, anityatvat. So aravihita karyasya anityatvat na vachadeshaha. So I have not gone this into this detail, so maybe you can take a look. So there's a bru gets the vach adeshaha somewhere because of some at some point. So okay, what else is there? Question. Okay, I think I'm going to complete with we are done with Sabdakalpadruma. Next week I will start a new dictionary, Vachaspatyam. So if there are any questions, you can ask me over email, or you can send. But whatever, one thing I wanted to show is this. Let me just quickly. If there's 1 minute, I'll just show you this. I wanted to bring this up, but I forgot to have it open. Let me just quickly do it. Okay, 1 minute. I will just okay, see that. Okay, so this is the thing I was talking about in the last class. So this is just Kavikalpadruma. So I just wanted to show you some verses from Kavikalpadruma so that you understand how it goes. Let me quickly go to that, sorry. Okay, here it is. Okay, so if you look at this, okay, what's it all? Come on. Kavikalpa. So this is how he gives this dhatu. So kashturadhi, kistuva, all this. So there he gives all the anubandhas he mentions. And then I want to show you some dhatu here. So for example, we saw the kata, kat dhatu, ta vakya prabande, kalatta, kati sankhya yoho, iti. So if you see this, this is how Kavikalpadruma goes. This whole thing used to be memorized by people. So I don't know if you're able to see this. So this whole thing used to be memorized by people. So this is how the Kavikalpadruma itself is organized. Kata, so Kata is Dhatu, but he puts an Akara dent for Uchcharanartham. Kata, Tka, so the Takara is Anubandha, Kakara is Anubandha, and all these things. So as I said, Kavikalpadruma starts with Akaranta Dhatuhu, Akaranta Dhatuhu, Ikaranta Dhatuhu, Ikaranta Dhatuhu. But Akaranta Dhatuhu, as I said, is only available in the Churadigana where he wants Adanta. Panini wants to put that. So all the akaranta dhatu will be from, will have this takara kakara anubandha. And then he keeps going like this, gada, all these things. Kati shlokaha, aham na janami, pashyama. Kati shlokaha iti prashnaha. So he has some 1700 dhatus. So yeah, let's keep going. How many shlokas here? Shatadikam iti manyayam. Shatadikam asti. Hundred and okay. We've gone till 122, 136. Okay. Oh, 160. It's crossing 200. Let me see. Okay, there is a question. Let me take that. Mahadevan. Yes.
Mahode, you mentioned Bhatti Kavyam.
Yes,
is it
Bhatti
available online?
Yeah, so Google for it. Bhatti Kavyam. It's not Bhatti Kavyam.
Bhatti Kavyam. Okay.
So it's a Ramayana only, but it is written for Vyakaranaha. So Vyakarana Amshala Diyate. Malinath has written a tika on it. So it's very good. I have not studied it. I've heard it is good. There are more than 200 shlokas here. So.
Is it like the Kavikalpadrama? Is it an explanation of Vyakarana Amsha?
Yes. I mean, Kavikalpadrama is not its Dhatupata, but it is quite good. Like you can just Google for it. You will get a copy from the archive.org.
Okay.
You can just read it. You will understand.
Okay, thanks.
So, Shatadika Dvishatam iti manye. Dvishata, Dvishatam ati asti. Kati. Kati shloka. Astu, evam etadapi archive madhye lapsyate. So you can get this Kavikalpadrama also in archive, you can check it out. Okay. So I think we will close the class today. We will start with the Atra 361 shlokas. Okay. So we will close the class here. Today we will start our next dictionary in the next class. Because I have spent enough time with Shabdakalpadrama, the Vachaspatyam will be much easier, so that we're going to build upon it. So I don't need much time to finish Vachaspatyam. So probably two classes for Vachaspatyam and we are done with this course. Astu. Swasti prajabhyah paripalayantam nyayena margena mahim mahishah go brahmane vyashvamastu nityam lokas samastha sukhino bhavantu. Dhanyavadaha.